संजय उवाच एव मुक्तो हृषीकेशः गुडाकेशेन भारत स्वेन योरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्येतां समवेतां कुरुनीतिः।